सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्। आरम्भे अहम् एकं श्लोकं वदामि। यां चिन्तयामि सततं मयि सा विरक्ता, साप्यन्यमिच्छति जनं सजनोऽन्यसक्तः, तस्मत्कृते च परिसुष्यति काचिदन्या, धिक्तां च तं च मदनं च इमां च मां च। इत्युक्ते किम्? अस्य श्लोकस्य को अर्थः? श्लोकं पठित्वा वयं किम् अवगन्तुं शक्नुमः इति एकवारं पश्याम। अत्र अस्मिन् श्लोके कविः वदति, अहं यां महिलां सततं चिन्तयन् अस्मि, अहं यां वनितां सततम् इच्छन् अस्मि, चिन्तयन् अस्मि, सा महिला मयि विरक्ता, सा महिला मां न इच्छति। यस्यां महिलायां मम प्रीतिः अस्ति सा महिला मयि विरक्ता, इत्युक्ते तस्याः अनुरक्तिः मयि नास्ति। सा महिला अन्यं पुरुषम् इच्छति, इत्युक्ते तस्यै अहं न रोचते। किन्तु सा वनिता यं पुरुषम् इच्छति सः पुरुषः अन्यसक्तः, इत्युक्ते सः पुरुषः, तस्य पुरुषस्य आसक्तिः अस्यां महिलायां नास्ति, तस्य पुरुषस्य आसक्तिः अन्यां वनितायाम् अस्ति। तदानीम् एव यदा अहं तां महिलां चिन्तयन् अस्मि, तदानीम् एव मम कृते काचित् अन्या महिला परिसुष्यति, इत्युक्ते काचित् अन्या महिला मम कृते सर्वदा चिन्तयन् अस्ति, सा तस्याः समयनाशं कुर्वती अस्ति अन्या महिला। इत्युक्ते अधुना या स्थितिः अस्ति सा स्थितिः बहु आश्चर्यमया स्थितिः, आश्चर्यजनका अस्ति। एतत् सर्वं किमर्थं भवति? एतत् सर्वं कथम् आपतितम्? एतत् सर्वं किमर्थम् अभवत् इति कविः चिन्तितवान्। तत्र कवेः नाम किम्? कवेः नाम भर्तृहरिः, सः एका राजा अपि च कविः। सः अत्र शतकत्रयं लिखितवान्। प्रथमः अस्ति नीतिशतकं, तत्र भर्तृहरिः सः यः श्लोकं यं श्लोकम् अहं पठितवती तं श्लोकं भर्तृहरिणा लिखितं श्लोकं। किन्तु सः तादृशीं स्थितिम् अवगम्य श्लोकस्य अन्ते किम् उक्तवान्? धिक्, धिक् इत्युक्ते शेम्, धिक् तां च तं च मदनं च इमां च मां च इति उक्तवान्। इत्युक्ते अस्याः स्थितेः कारणं किम्? केन कारणेन एतत् सर्वम् आपतितम् इति सः विचिन्त्य उक्तवान्। किम् उक्तवान्? एतत् सर्वं मदनेन कारणे, मदनेन एव अभवत्। वयं सर्वे ईदृशीं स्थितिं किमर्थम् अनुभूतवन्तः स्मः इति सः चिन्तयित्वा अस्य कृते मदनः एव कारणम् इति सः निर्धारितवान्। अतः एव सः वदति, धिक् तां च तं च मदनं च इमां च मां च। तदनन्तरं सः वैराग्यमेव अभयम् इति उक्तवान्, इत्युक्ते वैराग्यम् आचरणीयम् इति मत्वा तदनन्तरं सः वैराग्यशतकं लिखितवान्। इत्युक्ते धिक् इत्युक्ते शेम्, शेम् आन् अस्, सर्वैः अस्माभिः लज्जा अनुभवनीया, अनुभवितव्या इति कविः वदति। इत्युक्ते अस्मिन् श्लोके किमस्ति इत्युक्ते किमर्थम् अद्य इमं श्लोकं स्मारितवती इत्युक्ते अस्मिन् श्लोके यः सः, या सा एतानि पदानि सन्ति। अद्यतन अस्माकं नूतनविषयः अस्ति यः सः, या सा, अभ्यासपुस्तके एकः नूतनः विषयः अपि अस्ति। किन्तु अयं श्लोकः बहु उत्तमः श्लोकः, सर्वैः ज्ञातव्यं, सर्वैः अवगन्तव्यम्, अपि च सदा स्मर्तव्यम्. वन् शुड् रिमेम्बर् दिस् श्लोक फ़र् एवर्. इट् इस् सच् ए वण्डर्फुल् श्लोक. तदनन्तरम् अत्र गते मङ्गलवासरे वयं किं कृतवन्तः इत्युक्ते शरीरस्य अवयवानां विषये किञ्चित् ज्ञातवन्तः. शरीरस्य भागाः के अथवा शरीरस्य अवयवाः के, शरीरस्य भागानां नामानि कानि इति अस्माभिः ज्ञातानि. तदनन्तरं तत्र त्रिसप्ततितमे पुटे पेज् 73 मध्ये एकं कोष्टकमस्ति. तस्मिन् कोष्टके केचन वर्णाः, वर्णाः इत्युक्ते अक्षराणि. वर्णः इति पदं पुंलिङ्गपदं, किन्तु अक्षराणि इति नपुंसकलिङ्गपदं. केचन वर्णाः सन्ति, तानि अक्षराणि परिशील्य दशपदानि लेखनीयानि इति अस्माकं कार्यम्. अपि च गते सप्ताहे वयं दरिद्रतायाः भ्रान्तिः इति कथामपि पठितवन्तः. तत्र कथायाः नीतेः विषये वाक्यद्वयं लेखनीयमस्ति. किञ्चित् कालं गृहपाठविषये चिन्तनं कृत्वा तदनन्तरम् अभ्यासपुस्तकं प्रति गच्छेम. अत्र लक्ष्मी भगिनी, भवती लिखितवती वा अत्र शरीरस्य अवयवानां नामानि?
अस्तु भगिनि. ललाटः, कपोलः, नासिका, पादः, नखः, ब्रूः, नेत्रम्, उदरम्, भुजः, कटिः,
दश नामानि. कादम्बरी भगिनी इतोपि लिखितवती वा अन्यानि नामानि?
न भगिनि.
अस्तु. अनन्तरम् अत्र दरिद्रतायाः भ्रान्तिः, तस्मिन् विषये वाक्यद्वयं लेखनीयं. भवती लिखितवती वा नीतेः विषये? नीतिः का तत्र?
जीवने यावत् अस्ति तावत् अधिकम् इति सन्तोषं मनसि आवश्यकम्. I couldn't write these sentences in Sanskritam, but I wrote them in English. You can always be helpful with what you have, and always appreciate what God has given you.
Uttamam, uttamam bhagini, uttamaritya uktavati. Uttamam. Atra kopi likhita likhitvan va atra. राजीवसिंह महोदय, भवान् लिखितवान् वा?
आं भगिनि.
श्रावयतु.
ललाटः, भ्रुकुटि, उदरं, कटि, नासिकः, नखः, भुजः, पादः, कपोलः, नेत्रम्.
कथायाः विषये
सेण्टेन्स्. ऐ रेड् दट् एस् लक्ष्मी भगिनी. उपकारार्थं मत्स्य न ददातु, परन्तु मत्स्यबन्धन शिक्षणं करोतु. सेकेण्ड् सेण्टेन्स्, वयम् आत्मविश्वासं न त्यजयामः.
अत्र नीतेः विषये वदतु भगिनी.
टु सेण्टेन्सेस्. आरोग्यं परमा सम्पत्तिः. शरीरस्य सर्वाणि अङ्गानि सम्यक् चेत् अहं धनम् अर्जयिष्यामि, सुखी भविष्यामि, नो चेत् पराधीनः भविष्यामि. किमपि साधयितुं न शक्नुमः. जीवनं कठिनं भवति.
उत्तमम् पुनः एकवारं शनैः शनैः वदतु, मन्दं मन्दं वदतु भगिनी उत्तमानि वाक्यानि.
आरोग्यं परमा सम्पत्तिः, शरीरस्य सर्वं.
अत्र पश्यन्तु, परमा सम्पत्तिः किमर्थम् इत्युक्ते सम्पत् इति पदं स्त्रीलिङ्गपदं, तदर्थमेव परमा इति वक्तव्यं. वदतु.
शरीरस्य सर्वाणि अङ्गानि सम्यक् चेत् अहं धनम् अर्जयिष्यामि, सुखी भविष्यामि, नो चेत् पराधीनः भविष्यामि.
इत्युक्ते पराधीनः इति पुंलिङ्गरूपमस्ति, किन्तु महिला अस्ति इति कृत्वा पराधीना इति. उत्तमम्. अङ्गम् इति पदमस्ति, अङ्गम् इति नपुंसकलिङ्गपदमस्ति. उत्तमम्. अन्य के के साईकृष्णमहोदय, भवान् लिखितवान् वा?
आं भगिनि, एकवारं. जीवने परिश्रमेण धैर्येण सर्वेषां स्वकार्यं कर्तुं चेत् चेत् दरिद्रं पराजयते.
अस्तु. इतोपि इतोपि सन्ति वा? नो चेत् तत्र किञ्चित् चिन्तनं कुर्मः. कः दरिद्रः इति चिन्तयामश्चेत्, यस्य पार्श्वे धनं नास्ति सः दरिद्रः वा? न. यः कार्यं न करोति सः दरिद्रः. यः समयनाशं करोति सः दरिद्रः. यः अलसः, अलसः इत्युक्ते न कदापि कार्यं करोति, सः दरिद्रः भवति. अपि च यस्य पार्श्वे समीचीनम् आरोग्यमस्ति सः तु धनिकः एव. अपि च यस्य सुदृढानि अङ्गानि सन्ति सः दरिद्रः न, सः धनिकः एव. तथा इत्युक्ते इतोपि किं वक्तुं शक्नुमः, यः समयस्य सद्विनियोगं करोति सः महापुरुषः भवितुमर्हति. अपि च यस्य स्वास्थ्यं सम्यक् अस्ति सः समीचीनतया कार्याणि कर्तुं शक्नोति, तेन फलमपि प्राप्तुं शक्नोति. यदि वयं सर्वाणि कार्याणि अद्य कर्तुं न शक्यन्ते चेदपि तत्र कापि बाधा नास्ति. अद्य न कुर्मः चेत् श्वः अथवा परश्वः, नो चेत् प्रपरश्वः वा सर्वाणि कार्याणि वयं समीचीनतया कर्तुं शक्नुमः इति. एतत् मनसि स्थापयित्वा, मनसि निधाय, एतत् सर्वं मनसि निधाय कार्यं करणीयं. यदि वयं कार्यं कुर्मः चेत् फलं प्राप्तुं शक्यते. फलमित्युक्ते न केवलं धनम्, अन्ये अपि साधयितुं शक्नुमः. इत्युक्ते यः समीचीनं, यस्य पार्श्वे समीचीनम् आरोग्यमस्ति सः धनिकः. अपि च यः समयस्य सद्विनियोगं करोति सः तु धनिकः एव. यस्य पार्श्वे धनं नास्ति इति, धनं नास्ति चेत् किञ्चित् तत्र काचित् बाधा अस्ति एव, किन्तु धनमेव सर्वम् इति न चिन्तनीयं, न मन्तव्यम्. उत्तमम्. अनन्तरम् अत्र कस्मिन् पुटे स्मः वयं? 35.1 भागे, तत्र अभ्यासपुस्तकं पश्यन्तु एकवारं. 35.1 भागे यः सः, या सा, यत् तत् इति अभ्यासः अस्ति. तानि नूतनानि पदानि वयम् अद्य ज्ञास्यामः. अत्र कादम्बरी भगिनी भवती पठतु अत्र.
अस्तु.
उदाहरणं दृष्ट्वा एते के इति लिखतु.
अत्र अत्र स्थगयतु. अत्र किञ्चित् वदतु, अत्र पदानि कानिचन पदानि सन्ति, एकमेकं पदं स्वीकृत्य वदतु, नो चेत् अत्र साईकृष्णमहोदय भवान् वदतु, अत्र एकमेकं पदं स्वीकृत्य विभक्तिः कः, वचनं किं, यदि कृदन्तपदमस्ति चेत् तत्र रूपं कीदृशं रूपम् अस्ति वदतु.
उदाहरणं द्वितीय दृष्ट्वा आफ्टर् सीन् दट् इस् त्वा प्रत्यय एते के इति लिखतु. एते के सप्तमी खे खे दीस् खे बहुवचनं इति.
अत्र पुनः एकवारम् आं महोदय, पुनः एकवारम् अत्र उदाहरणम् इति पदमस्ति, लिङ्गं किं
नपुंसकलिङ्गं,
विभक्तिः का,
प्रथमा द्वितीय
द्वितीया विभक्ति, किमर्थं द्वितीया,
दृष्ट्वा त्वा प्रत्यय सो
इत्युक्ते अत्र दृष् धातोः रूपमेव दृष्ट्वा क्त्वान्तरूपमस्ति, दृष् धातुः सकर्मकधातुः अस्ति इति कृत्वा अत्र क्त्वान्तरूपम् अपि कर्मपदं स्वीकरोति, अतः उदाहरणम् इति पदं यद्यपि नपुंसकलिङ्गपदमस्ति द्वितीयाविभक्त्यां लिखितमस्ति. दृष्ट्वा इति रूपं दृष् धातोः रूपं, दृष्योगः क्त्वा, तत्र षकारः कथमागतं, सकारः कथमागतं, तत्र बहूनि सन्धिकार्याणि सन्ति. उत्तमम्. अनन्तरम् एते इति पदमस्ति, कीदृशं पदं कोऽपि वदतु, लक्ष्मी भगिनी वदतु.
एकवचनं बहु सोरि प्रथमा बहुवचनं,
प्रथमा बहुवचनं इत्युक्ते तत्र रूपाणि वदतु महोदय एकवारम्, अन्येषां कृते वदतु. अत्र वदतु,
एतः एतौ एते
एषः
एषः
एषः वदतु, एषः एतौ
एतौ एते
एषः इति पदं सर्वनामपदं पुंलिङ्गे अस्ति, एषः एतौ एते. अत्र एतद् इति दकारान्तप्रातिपदिकमस्ति, किन्तु दकारान्तप्रातिपदिकम् एतद् रूपात् पुंलिङ्गरूपम् एषः, स्त्रीलिङ्गरूपम् एषा, नपुंसकलिङ्गरूपम् एतत्, किन्तु अत्र एते इति लिखितमस्ति. एते इति किमर्थं लिखितमस्ति वदतु, एते इति पदं किमर्थमस्ति इत्युक्ते एते पुंलिङ्गशब्दः, किन्तु अत्र अस्मिन् पुटे एते किमर्थमस्ति इत्युक्ते अत्र पश्यतु पदानि सन्ति, पदम् इति वदामश्चेत् नपुंसकलिङ्गपदं, किन्तु शब्दः इति वदामश्चेत् पुंलिङ्गपदं, शब्दाः. अत्र एते शब्दाः के, यदि नपुंसकलिङ्गे तत्र सूचनां लेखितुमिच्छामश्चेत् उदाहरणं दृष्ट्वा एतानि कानि, एतानि पदानि कानि इति लिखतु, अथवा अत्र इतोपि किं वक्तव्यम्, अत्र पदानि दत्तानि, एते इति पदं पुंलिङ्गपदं बहुवचनरूपं प्रथमाविभक्त्यन्तरूपम् अस्ति, के इत्यस्मिन् विषये वदतु, किन्तु अत्र एतत् इति दकारान्तपदं तस्य पुंलिङ्गरूपम् एषः बहुवचनरूपम् एते किन्तु के इत्यस्मिन् विषये वदतु कः कौ के उत्तमम् अत्र कः शब्दः किम् इति मकारान्तपदमस्ति किं शब्दस्य रूपं पुंलिङ्गे कः कौ के इति भवति तत्र लिखतु लकारः कः लोट्लकारः उत्तमं लोट्लकारः किन्तु प्रथमपुरुष एकवचनं लिखतु लिखतां लिखन्तु तथा वक्तव्यं लिखतु लिखतां लिखन्तु लिख लिखतं लिखत लिखानि लिखाव लिखाम तादृशरूपाणि नवरूपाणि भवन्ति किन्तु अत्र प्रथमपुरुष एकवचनरूपं दत्तमस्ति इत्युक्ते एकम् एव छात्रम् उद्दिश्य भवान् लिखतु किं लिखतु एते के लिखतु किं दृष्ट्वा उदाहरणं दृष्ट्वा लिखतु उत्तमं पठतु महोदय भवान् एव प्रथमं पदं किं
क्रीडालु क्रीडालुः यः
क्रीडालु क्रीडालुः इत्युक्ते कः
क्रीडालुः इत्युक्ते यः क्रीडा क्रीडति सः क्रीडालुः ओवर् प्ले
उत्तमम् इत्युक्ते अत्र क्रीडालुः इति पदं नूतनं पदं लिखितमस्ति क्रीडालुः इत्युक्ते कः इति वयं साधारणतया अस्माकं जिज्ञासा अस्ति एव वि आर् क्यूरियस् टु नो वाट् इस् क्रीडालुः हू इस् क्रीडालुः यः क्रीडति सः क्रीडालुः अत्र क्रीडालुः इति पदमस्ति क्रीडालुः इति पदं संस्कृतभाषायां किं वदामः आलुच् इति प्रत्ययः अस्ति तत्र क्रीड् इति धातुः अस्ति आलुच् इति प्रत्ययः तदर्थमत्र क्रीडालुः संस्कृतभाषायाम् अन्यानि पदानि एतादृशानि पदानि सन्ति कथं कानिचन पदानि वदामि दयालुः निद्रालुः तन्द्रालुः श्रद्धालुः शयालुः एतादृशानि पदानि संस्कृतभाषायां सन्ति किन्तु क्रीडालुः इत्युक्ते यः क्रीडति सः क्रीडालुः इति वदामः उत्तमं द्वितीयं पदं वदतु
गायकः यः गायति सः गायकः
यः गायकः गायति सः गायकः अहं वदामि गायिका वदतु
यः गायति सः गायिका
अत्र कथं वक्तव्यं या गायति
या गायति सा गायिका
या गायति सा गायिका अत्र पश्यन्तु यः इति पदेन सह सः इति वदामः या सा या बालिका अस्ति अधुना आगच्छतु भगिनि अधुना या सा गायकः इति वदामश्चेत् यः गायति सः गायकः या गायति सा गायिका उत्तमम् अत्र गायकः इति पदमस्ति अत्र किञ्चित् वदामि गै इति धातुः अस्ति संस्कृतभाषायां गै धातोः रूपं गायति किन्तु अत्र गायकः इति रूपमस्ति तत्र एकः प्रत्ययः अस्ति प्रत्ययस्य नाम अस्ति नुवल् नुवल् प्रत्ययः नुवल् प्रत्ययः योजयामश्चेत् गायकः पाठकः चालकः लेखकः एतादृशानि पदानि सिद्ध्यन्ति इत्युक्ते पदस्य अन्ते अत्र एकः विशिष्टप्रत्ययः अस्ति तस्य नाम अस्ति नुवल् इति प्रत्ययः तदर्थमेव अत्र रूपं गायकः किन्तु स्त्रीलिङ्गे गायिका इति वदामः उत्तमं महोदय अनन्तरम् अत्र लक्ष्मी भगिनी भवती पठतु अग्रिमं वाक्यं भवती पूरयतु
भाषणकारः यः भाषणं करोति सः भाषणकारः
यः भाषणं करोति सः भाषणकारः. अत्र भाषणकारः इति पदस्य विषये किञ्चित् वदामि. अत्र भाषणकारः इति पदं समस्तपदम् इत्युक्ते काम्पौण्ड् वर्ड्. भाषणकारः इति पदं कथम् आगतम् इत्युक्ते तत्र यः भाषणं करोति सः भाषणकारः यथा भवती उक्तवती. अत्र समासस्य नाम अस्ति उपपदसमासः इति वदामः. साधारणतया समासः सुबन्तपदयोः मध्ये एव भवति, किन्तु अत्र किञ्चित् अपवादत्वेन तिङन्तपदमपि विग्रहवाक्ये आगच्छति. यः भाषणं करोति सः भाषणकारः. तथा एव चित्रकारः, वदतु भगिनि.
यः चित्रं करोति सः चित्रकारकः.
चित्रकारः, उत्तमं. कुम्भकारः, वदतु.
यः कुम्भं करोति सः कुम्भकारः.
कुम्भकारः, उत्तमं. यः कुम्भं करोति सः कुम्भकारः. अपि च यः शिल्पकारः, वदतु.
यः शिल्पं करोति सः शिल्पकारः.
उत्तमम्. इत्युक्ते एतादृशरीत्या अत्र विग्रहवाक्यं वक्तव्यम्. एतानि पदानि भाषणकारः, चित्रकारः, कुम्भकारः, शिल्पकारः, लिपिकारः, एतानि पदानि समस्तपदानि तत्र उपपदसमासः इति वदामः. उपपदसमासः अस्ति, किन्तु अत्र अस्माकं विषयः तु यः सः. यः भाषणं करोति सः भाषणकारः. चालकः, वदतु वाक्यं.
यः वाहनं चालयति सः चालकः.
यः च वाहनं चालयति अथवा यः वाहनस्य चालनं करोति. वाहनस्य चालनं करोति. अत्र चालनम् इति पदं ल्युडन्तरूपं, ल्युट् प्रत्ययान्तरूपं. चल् धातोः रूपं, चल् धातोः रूपं चलति, किन्तु ल्युडन्तरूपं चालनं. वा यः वाहनस्य चालनं करोति सः चालकः. अथवा यथा भवती उक्तवती, यः वाहनं चालयति सः चालकः, तदपि समीचीनमेव. इत्युक्ते वाक्यं द्विधा वक्तुं शक्नुमः. वि केन् से द सेम् सेण्टेन्स् इन् ए टु डिफ्रेण्ट् वेस्. अत्रापि चालकः इति पदं नवल् प्रत्ययः. प्रत्ययस्य नाम तत्र अग्रे गत्वा वयं व्याकरणवर्गे वर्गं गच्छामश्चेत् तत्र सूत्राणि सन्ति. युवोरनाकौ इति एकं सूत्रमस्ति. तेन सूत्रेण किं भवति, अत्र अक इति आदेशः भवति. तदर्थमेव अत्र रूपं चल् धातोः रूपं. प्रथमतया अत्र वयं जानीमः चलति इति पदं भिन्नं पदं, चालयति भिन्नं पदं. चलति सः चलति, किन्तु सः वाहनं चालयति. अत्र चालयति इति पदं निजन्तरूपम् इति वदामः. इत्युक्ते तत्र निच् इति प्रत्ययः अस्ति. चालयति चाल् तत्र चालि इति धातुः आगच्छति. तदनन्तरं चालकः इति रूपम् आगच्छति. अनन्तरं लेखकः, करोतु.
यः लिखति सः लेखकः.
यः लिखति सः लेखकः. उत्तमं भगिनि. अनन्तरम् अत्र राजसिंह महोदय भवान् करोतु.
आं भगिनि. वैद्या या चिकित्सां करोति सा वैद्याः.
पुंलिङ्गे वदतु.
यः चिकित्सां करोति सः वैद्यः.
उत्तमं. यः चिकित्सां करोति सः वैद्यः. किन्तु अत्र पुस्तके स्त्रीलिङ्गे दत्तमस्ति. अत्र वैद्यः इति वदामश्चेत् अन्ते एकः भिन्नप्रत्ययः अस्ति. वैद्या इति वदामश्चेत् तत्र भिन्नप्रत्ययः अस्ति. तत्र तत्र किं वदामः, टाप् डाप् तादृशरीत्या स्त्रीलिङ्गपदानां कृते, केवलं स्त्रीलिङ्गपदानां कृते एव तत्र भिन्नप्रत्ययाः सन्ति. स्त्रीप्रत्ययाः इति वदामः. तेन बालिका, वैद्या, तादृश अन्ते आ इति रूपम् आगच्छति. अग्रिमं करोतु.
नर्तकी या नृत्यं करोति सा नर्तकी.
पुंलिङ्गे वदतु.
यः नृत्यं करोति सः नर्तकः.
यः नृत्यं करोति सः नर्तकः. अत्र नर्तकी इति पदमस्ति. इत्युक्ते पदस्य अन्ते ई इति आगच्छति. किमर्थम् इत्युक्ते तत्रापि एकः प्रत्ययः अस्ति. तस्य नाम अस्ति नीप् नीश् तादृशरीत्या प्रत्ययाः सन्ति, स्त्रीप्रत्ययाः सन्ति. तेन नर्तकी इति रूपम् आगच्छति. उत्तमम्. अध्यापिका करोतु.
अध्यापिका या अध्यापनं करोति सा अध्यापिका.
उत्तमम्. या अध्यापनं करोति सा अध्यापिका. उत्तमम्. पुंलिङ्गे वदतु.
यः अध्यापनं करोति सः अध्यापकः.
उत्तमं. नो चेत् यः अध्यापयति सः अध्यापकः. तदपि समीचीनमेव. यः अध्यापयति सः अध्यापकः. अथवा यथा भवान् उक्तवान् यः अध्यापनं करोति सः अध्यापकः. अत्र किञ्चित् वदामि अध्यापकः इति पदस्य विषये. अध्यापकः इति पदं कथमागतम् इति पश्यामश्चेत् संस्कृतभाषायाम् उपसर्गाः सन्ति. उपसर्गाः इत्युक्ते प्रिफिक्सस्. देर् आर् 22 प्रिफिक्सस्. तत्र प्रापरा अप सम सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत अभि प्रति परि उप. एते द्वाविंशति उपसर्गाः इति वदामः. उपसर्गाः इत्युक्ते प्रिफिक्सस्. अत्र अध्यापकः इति पदं कथमागतम्? अत्र वि नीड् टु नो द एटिमालजि आफ़् द वर्ड्स्. एव्रि वर्ड् ईस् डिरैव्ड् इन् संस्कृतं बेस्ड् आन् सो मेनि सूत्रस्. अत्र अधि उपसर्गपूर्वकः, ई धातुः, निच् इति प्रत्ययः. योजनेन किं भवति? अत्र अधि उपसर्गपूर्वकः, ई धातुः, निच् प्रत्ययः, अनन्तरं ल्युट् प्रत्ययं योजनेन अध्यापनम् इति पदमागच्छति. किन्तु अत्र अध्यापकः इति वदामि चेत् तत्र नुवल् अन्ते नुवल् प्रत्ययः अस्ति. यथा गायकः, चालकः, लेखकः, अध्यापकः एतेषां पदानाम् अन्ते यः प्रत्ययः अस्ति तस्य नाम अस्ति नुवल् इति वदामः. भिन्नभिन्नप्रत्ययाः सन्ति संस्कृतभाषायाम्. इत्युक्ते अध्यापकः इत्युक्ते अधि प्लस् ई धातुः, णिच् प्रत्ययः, अनन्तरं नुवल् इति प्रत्ययः. तेन अध्यापकः इति पदमागतं. तदनन्तरं तस्य अन्ते स्त्रीप्रत्ययस्य योजनेन अध्यापिका इति पदमागच्छति. उत्तमं. यः अध्यापनं करोति सः अध्यापकः. कार्यकर्त्री करोतु.
या कार्यं करोति सा कार्यकर्त्री. कार्यकर्त्री.
अत्र कार्यकर्त्री इति पदस्य लिङ्गं किम्?
स्त्रीलिङ्गं.
स्त्रीलिङ्गं. कार्यकर्त्री इति स्त्रीलिङ्गपदं. किन्तु पुंलिङ्गे किं वदामः?
कार्यकर्ता.
कार्यकर्ता. अत्र कर्ता इति पदं तृच् इति प्रत्ययः अस्ति. तृच् प्रत्ययान्तरूपमेव कर्ता. किन्तु स्त्रीलिङ्गे कर्त्री भवति. तथा एव भर्ता अथवा वक्ता. तत्र तृच् प्रत्ययान्तरूपं कार्यकर्त्री. अत्र पुनः एकवारं स्त्रीलिङ्गे वाक्यं निर्मातु.
या कार्यं करोति सा कार्यकर्त्री.
कार्यकर्त्री. उत्तमं. धन्यवादः महोदय. अनन्तरम् अत्र इतोपि किमस्ति? अत्र सुचित्रा भगिनी भवती करोतु अग्रिमं यत् तत्
यत् तत् एतानि वाक्यानि पठतु मम समीपे यत् पुस्तकम् अस्ति तत् अन्यत्र नास्ति
भगिनी एकवारम् अत्र एतानि वाक्यानि पठतु अत्र एतानि वाक्यानि तस्मिन् विषये किञ्चित् वदतु
एतानि बहुवचनं सप्तमी रूप विभक्ति वाक्यानि बहुवचनं पठतु तुमिन् रूपम्
सम्यक्तया वदतु अत्र एतानि अत्र एतानि कीदृशं रूपं लिङ्गं किम्
एतानि बहुवचनं नपुंसकलिङ्गं
किन्तु विभक्तिः का
एतत् दीस्
विभक्तिः अत्र द्वितीयाविभक्तिः
द्वितीयाविभक्ति बहुवचनं
एकवारं रूपाणि वदतु अत्र
एतानि
वदतु
एतत् सारि भगिनि एतत् तत् ते तानि
अत्र एतत् कथं वक्तव्यं रूपाणि
एतत् दीस् द्वितीया विभक्ति एकवचनम् एतत्
किन्तु अत्र यथा भवती उक्तवती तत् ते तानि इति वदामः किन्तु अत्र एतत् इति अस्ति इति कारणतः एतत् एते एतानि तादृशरीत्या रूपाणि भवन्ति प्रथम विभक्तिरूपाणि द्वितीयविभक्त्यन्तरूपाणि समानानि नपुंसकलिङ्गपदमस्ति इति कृत्वा किन्तु एतत् इति पदं दकारान्तपदं प्रातिपदिकम् एतद् तत्र एकं सन्धिसूत्रमस्ति तेन एतत् इति भवति अत्र किं वदामः वावसाने इति सूत्रेण दकारान्तपदम् अन्ते दकारः अस्ति चेत् तकारः भवति अत्र एतत् इति रूपम् आगतं यथा भवती उक्तवती अत्र पठतु इति लोट्लकाररूपं लोट्लकार प्रथमपुरुष एकवचनरूपं प्रथमवाक्यं वदतु
मम समीपे यत् पुस्तकम् अस्ति तत् अन्यत्र नास्ति
अवगतवती वा इत्युक्ते मम समीपे यत् पुस्तकमस्ति तद् अन्यत्र नास्ति इति लिखितमस्ति अत्र यत् तत् इति पदद्वयं युगलं कृत्वा गच्छति वदतु अग्रिमं करोतु
विदेशे यत् तन्त्रज्ञानम् अस्ति तत् भारते नास्ति
अत्र विदेशे इति पदमस्ति तस्य विभक्तिः का
सप्तमी विभक्ति
उत्तमम् अपि च भारते
अपि सप्तमी विभक्ति
उत्तमं किन्तु अत्र भारते इति पदस्य लिङ्गं किम्
पुल्लिङ्ग्
वदतु
भारत पुल्लिङ्ग्
अत्र किं वदामः इत्युक्ते भारतदेशः इति वदामः नो चेत् भारतम् इति वदामः उत्तमं किन्तु अत्र प्रथमं पदं पश्यतु विदेशः इति पदं पुंलिङ्गपदम् देशः इति पदं विदेशः किन्तु वयं जानीमः पुंलिङ्गपदं नपुंसकलिङ्गपदं तयोः रूपाणि तृतीयाविभक्ति आरभ्य सप्तमीपर्यन्तं समानानि अतः अत्र विदेशः इति पदस्य सप्तम्यन्तं रूपं विदेशे किन्तु भारतम् इति पदस्य सप्तम्यन्तं रूपं भारते अस्मिन् वाक्ये एकं नूतनं पदमस्ति तन्त्रज्ञानम् इत्युक्ते किं
तन्त्र मीन्स् टूल्स् सो टेक्नालजि कुड् बि टेक्नालजि हियर्
उत्तम टेक्नालजि इति वदामः अत्र भारतदेशः इति वदामश्चेत् किमर्थं भारतदेशः इति नाम अस्ति इति वदामश्चेत् यस्मिन् देशे अथवा ये जनाः भारतदेशे वसन्ति ते भारतीयाः अत्र ये जनाः भारतदेशे वसन्ति ते भारतीयाः अथवा यः देशः भारतस्य देशः सः भारतदेशः अथवा ये भरतवंशजाः भारतदे ये भरतवंशजाः सन्ति ते सर्वे भारतीयाः भारत इति पदं कथम् आगतम् इत्युक्ते भरतः वयं जानीमः भरतस्य नाम यः देशः भरतस्य देशः सः एव भारतदेशः अत्र भरत इति पदात् भारत इति पदमागतम् उत्तमम् अनन्तरम् इत्युक्ते अत्र वाक्यं किं वदति विदेशे यत् तन्त्रज्ञानमस्ति तत् भारतदेशे नास्ति एतत् एतत् भवती अङ्गीकरोति वा भगिनि किम् अवगतवती
यन्त्रज्ञानम् अहं न
इत्युक्ते एतत् वाक्यं दृष्ट्वा भवती किं वाक्यं सम्यक् वा न वा इत्युक्ते अत्र भारतदेशे विदेशेषु यादृशं तन्त्रज्ञानमस्ति तादृशं भारतदेशे नास्ति इति लिखितमस्ति वट् एवर् टेक्नालजि इस् देर् इन् फारिन् कण्ट्रीस् इट् इस् नाट् देर् इन् इण्डिया इति लिखितमस्ति किमपि अस्तु चिन्ता मास्तु किन्तु अत्र एकवारं पश्यतु अत्र यत् तत् किमर्थं दत्तमस्ति इत्युक्ते अत्र पुस्तकम् इति पदं नपुंसकलिङ्गपदम् अतः यत् पुस्तकमस्ति तत् अन्यत्र नास्ति यत् तन्त्रज्ञानमस्ति तत् भारते नास्ति अत्र यत् इति पदं किमर्थं योजितवन्तः इत्युक्ते नपुंसकलिङ्गपदम् इत्युक्ते पुंलिङ्गे वदामश्चेत् यः सः इति वदामः स्त्रीलिङ्गे वदामश्चेत् या सः उत्तमम् अत्र एतेषु वाक्येषु पदानि नपुंसकलिङ्गपदानि पुस्तकं यत् पुस्तकं तत् यत् तन्त्रज्ञानं तत् उत्तमम् अग्रिमं करोतु
अध्यात्मविषये भारतीयानं यत् चिन्तनम् अस्ति तत् अपूर्वम्
अध्यात्मविषये तत्र विभक्तिः का
अध्यात्मविषये सप्तमी विभक्ति भगिनि अध्यात्मविषये
उत्तमम् अत्र प्रथमाविभक्त्यन्तरूपं किम्
अध्यात्मविषयः
उत्तमम् अध्यात्मविषयः भवती जानाति वा अध्यात्मविषयः इत्युक्ते किम् अध्यात्मविषयः इत्युक्ते कोऽपि वदतु अध्यात्मविषयः इति पदस्य सप्तम्यन्तं रूपं दत्तमस्ति वदतु भगिनि लक्ष्मी भगिनी वदतु
स्पिरिचुवल् नालेज्
स्पिरिचुवल् नालेज् स्पिरिचुवल् नालेज् अत्र पश्यन्तु अध्यात्म इति पदमस्ति तत् पदं कथमागतम् इति पश्यामश्चेत् अत्र अधि इति उपसर्गः अस्ति अधि इति एकः उपसर्गः अत्र किञ्चित् ध्वनिः अस्ति अत्र अधि इति उपसर्गः अस्ति आत्मा इति पदमस्ति आत्मा इति पदं नकारान्तपदं कथं वक्तव्यं रूपाणि आत्मा आत्मानौ आत्मानः आत्मानम् आत्मानौ आत्मनः नकारान्तपदं तस्य प्रातिपदिकमस्ति आत्मन् किन्तु प्रथमाविभक्त्यन्तरूपम् आत्मा आत्मा इत्युक्ते स्पिरिट् अधि प्लस् आत्मा अत्र सन्धिः भवति यण्सन्धिः इति वदामः तेन अध्यात्मा इति भवति अध्यात्मविषयः अध्यात्मविषये सप्तम्यन्तरूपम् अध्यात्मविषये वित् रेस्पेक्ट् टु स्पिरिचुवल् नालेड्ज् भारतीयानां यत् चिन्तनमस्ति तत् अपूर्वं भारतीयानां चिन्तनं रूपं किम् वदतु भगिनि
तृतीया
साईकृष्णमहोदय वदतु
षष्टि
वचनं किम्
एकवचनं
एकवचनं भारतीयस्य बहुवचनं उत्तमं भारतीयस्य एकवचनं बहुवचनं भारतीयानां अत्र अध्यात्मविषये अध्यात्मविषयः इत्युक्ते आत्मनः सम्बद्धं ज्ञानम् अथवा उपनिषदां द्वारा प्राप्तं परमात्मनः ज्ञानम् एव अध्यात्मज्ञानम् इति वदामः अत्र अधि इति उपसर्गः आत्मा इति योजयामः तेन अध्यात्म इति भवति किन्तु समस्तपदम् अध्यात्मविषयः किन्तु भारतीयः भारतीयानाम् इति षष्टि बहुवचनरूपम् अध्यात्मविषये भारतीयानां चिन्तनं यदस्ति तदपूर्वं चिन्तनम् इति पदम् अत्र वयं साधारणतया शृणुमः चिन्तयति भवती किं चिन्तयति इति वदामः तत्र चिन्तयति चिन्तधातुः चिन्तयति इति लट्लकाररूपं किन्तु अत्र एकः प्रत्ययः अस्ति ल्युट् इति वदामः ल्युट् प्रत्ययस्य योजनेन चिन्तनम् इति पदमागतं यत् चिन्तनमस्ति तत् चिन्तनम् अपूर्वम् अपूर्वम् इत्युक्ते कोऽपि वदतु अपूर्वम् कोऽपि वदति
वा
कोऽपि वदतु अपूर्वम् इति वदामश्चेत् तत्र किं भवति पूर्वम् अत्र अन्कम्पेरबल् इत्युक्ते अत्र पूर्वं नास्ति अपूर्वं तत्र किं वदामः नैसमासः इति वदामः सत्यम् असत्यं तथा एव अत्र पूर्वम् अपूर्वम् इति वदामः अत्र अस्माकं विषयः तु चिन्तनम् इति पदं नपुंसकलिङ्गपदमस्ति इति कृत्वा अत्र वाक्यं वाक्ये यत् तत् इति पदद्वयं योजितमस्ति अध्यात्मविषये भारतीयानां यत् चिन्तनमस्ति तदपूर्वं तदन्यत्र कुत्रापि नास्ति इति तत्र विषयः एतादृशानि वाक्यानि लिखतु इति अधुना वयं किञ्चित् अभ्यासं कुर्मः अभ्यासः कः इत्युक्ते अहं वाक्यस्य प्रथमभागं वदामि भवन्तः वाक्यस्य द्वितीयभागं किञ्चित् वदन्तु अधुना अत्र कादम्बरी भगिनी भवती वदतु अधुना यः अध्यापनं करोति सः
सः अध्यापकः
उत्तमं या अध्यापनं करोति सा
अध्यापिका
उत्तमं यः कुम्भं करोति सः
कुम्भकारः
उत्तमं यः कृषिकार्यं करोति सः
सः
कोऽपि वदतु अन्यः कृषिकार्यं कृषकः उत्तमं कृषकः अथवा तत्र अन्यत् पदमपि अस्ति, कृषकः अथवा कृषीवलः, कृषिकारः, किमपि. उत्तमम्. अनन्तरम् अत्र यः शिल्पं करोति,
शिल्पकारः.
उत्तमं. शिल्पकारः. यः चित्रं करोति,
चित्रकारः.
तत्र वाक्यं पूर्णतया वक्तव्यं, यः चित्रं करोति सः चित्रकारः. उत्तमं. तथा वक्तव्यम्. उत्तमं भगिनी. अनन्तरं विलम्बेन केनापि आगतं वा? अत्र एनानिमस् इव दृश्यते. के के आगतवन्तः विलम्बेन? अत्र एनानिमस्, एनानिमस् अस्ति. कृपया नाम उचितं. विलम्बेन येन केनापि आगतं वा? अत्र शैलजा भगिनी, विलम्बेन का आगतवती? Who came late to the class? कृपया नाम उच्यतां, नाम उच्यतां.
विजयराव भगिनी, the connection, connection cut to the one.
विजयराव.
करपत्रं नास्ति भगिनि.
चिन्ता मास्तु. अत्र वयम् अभ्यासं कुर्वन्तः स्मः. अत्र अभ्यासः कः इत्युक्ते यः सः, या सा, यत् तत्. तत्र अहं वाक्यस्य प्रथमभागं वदामि, भवती किञ्चित् पूरयतु. प्रथमतया वाक्यं शृणोतु. यः यः वाणिज्यं करोति सः
वाणिकः.
वणिक् इति वदामः.
वणिक्.
अनन्तरं यः लिखति सः
लेखकः.
उत्तमं. यः विद्यार्जनं करोति सः
विद्यार्थिः. विद्यार्थिनी वा विद्यार्थी, विद्यार्थः.
हनिः अस्ति भगिनि. अत्र यः यः विद्यार्जनं करोति सः विद्यार्थी. किमर्थं चेत् अत्र किमर्थं चेत् तत्र यः इति पदं पुंलिङ्गपदमस्ति. यः विद्यार्जनं करोति सः विद्यार्थी. या विद्यार्जनं करोति सा विद्यार्थिनी इति वदामः. अधुना लक्ष्मीभगिनी भवती वदतु. अधुना यः पाकं करोति सः
पाठकः.
पाकं, पाकम् इत्युक्ते पचति. पाकं, पाकक्रिया.
पाचकः, पाचकः.
उत्तमं. पाचकः. यः पाकं करोति सः पाचकः इति वदामः. यः भिक्षां याचते सः
भिक्षुकः.
भिक्षुकः.
उत्तमं. भिक्षुकः. यः काव्यं लिखति सः
काव्यकारः.
काव्यं लिखति काव्यकारः अथवा कविः.
कविः, कविः.
कविः. यः गायति सः
गायकी अथवा गायकः.
कथं वक्तव्यं?
स्त्रीलिङ्गं
वदतु. स्त्रीलिङ्गे वाक्यं, स्त्रीलिङ्गे वाक्यं वदतु. तदनन्तरं पुंलिङ्गे वाक्यमपि वदतु.
सः, सा गायति, ते गायकी, सः गायतः, त गायकः.
अत्र शायिकृष्णमहोदय भवान् वदतु सम्यक् रीत्या.
यः गायति सः गायकः. या गायिका या गायति सा गायिका
या गायति सा गायिका अपि च यः अभिनयं करोति सः एक्टर् संस्कृतभाषायां याक्टर् इति वदामश्चेत् किं वदामः वदतु महोदय राजीवसिंह महोदय वदतु अभिनेता यः अभिनयं करोति सः अभिनेता स्त्रीलिङ्गे किं वदामः भवान् एव वदतु
या अभिनय करोति सा अभिनेत्री
हा या अभिनयं करोति सा अभिनेत्री अपि च अन्यत् पदमस्ति वितारकः वितारकः इत्युक्ते सर्वर् हू सर्व्स् द फुड् वितारकः यः वितरणं करोति सः वितारकः वितरणम् इत्युक्ते सर्विङ्ग् द फुड् वितरणं करोति सः वितारकः अपि च भवानेव वदतु यः सेवां करोति सः
सेवकः
सेवकः यः चिकित्सां करोति सः
वैद्यः
वैद्यः अथवा चिकित्सकः
चिकित्सकः
अत्र वाक्यं कथं वक्तव्यं यः चिकित्सां करोति सः चिकित्सकः यः कर्म करोति सः कर्मकारः अपि च यः वस्त्रं प्रक्षालयति सः कः
क्षालकः
अक्षालकः अथवा किं वदामः रजकः संस्कृतभाषायां रजकः इत्युक्ते यः वस्त्रप्रक्षालनं करोति सः रजकः अपि च संस्कृतभाषायां कर्मकरः इति पदमस्ति अपि च कर्मकारः इति पदमस्ति किन्तु द्वयोः पदयोः मध्ये किञ्चित् भेदः अस्ति अपि च यः चौर्यं करोति अथवा यः चोरयति वस्तुं चोरयति सः चोरः तथा एव अत्र अस्माकं पुस्तके किं दत्तमस्ति यः क्रीडति सः क्रीडालुः अथवा यः क्रीडति सः क्रीडापटुः इति अपि वक्तुं शक्नुमः यः अधुना अत्र लक्ष्मीभगिनी भवती वदतु यः लोहं करोति सः
लोहितः
सः लोहकारः तथा एव यः युद्धं करोति सः
युद्धकारः
तत्र किं वक्तव्यम् इत्युक्ते यः युद्धं करोति सः
योधः
योधः अथवा योद्धा तृच् तृच् इति प्रत्यान्तरूपमस्ति योद्धा यः युद्धं करोति सः योद्धा अपि च यः वाहनं चालयति सः वाहनचालकः अपि च अत्र सुचित्रा भगिनी भवती वदतु यः रक्षणं करोति सः
रक्षकः
रक्षकः किन्तु आरक्षकः इत्युक्ते पोलीस् अपि च भवती एव वदतु यः लेपनं करोति सः
लेपनं
लेपनं लेपनं इत्युक्ते लेपनक्रिया लेपनं करोति
सः लेपकः
लेपकारः अथवा लेपकः लेपनम् इत्युक्ते अप्लैङ्ग् सम् बाम् अपि च यः सङ्गीतं वादयति सः
सङ्गीतकारः
सङ्गीतकारः उत्तमम् अपि च इतोपि यः सः योजयित्वा अन्यानि पद अन्यानि वाक्यानि अपि वयं रचयितुं शक्नुमः. इदानीं पर्यन्तं तत्र विद्यार्थी, सङ्गीतकारः, अध्यापकः तादृशानि पदानि वयं ज्ञातवन्तः. किन्तु अत्र यः सः योजयित्वा अन्यानि वाक्यानि अपि लेखितुं शक्नुमः. कथं? पश्यतु, यः आगच्छति सः एव मम भ्राता. अत्र पश्यतु, अहं वदामि एकं वाक्यम्. अत्र सर्वे पश्यन्तु, यः अत्र आगच्छति सः एव मम भ्राता. तादृशानि वाक्यानि अपि वयं लेखितुं शक्नुमः. तथा एव पाकशालायां या पाकं करोति, अधुना अत्र पाकशालायां या पाकं करोति सा एव मम माता. तथापि वाक्यरचनां कर्तुं शक्नुमः. अपि च अत्र क्रीडाङ्गणे या बालिका क्रीडति अस्ति सा बालिका एव मम पुत्री. अथवा अत्र क्रीडाङ्गणे या क्रीडति सा एका क्रीडाकारिणी. या सा योजयित्वा वाक्यानि. अपि च नृत्याङ्गणे या बालिका नृत्यं कुर्वती अस्ति सा बालिका एव मम सहोदरी अथवा मम पुत्री. किमपि तादृशरीत्या अपि वाक्यानि कर्तुं शक्नुमः. अपि च अत्र संस्कृतभाषायाम् एकम् अन्यत् पदमस्ति, अलसः, अलसा इति पदमस्ति. अलसः इत्युक्ते कः? इत्युक्ते यः कदापि कार्यं न करोति सः अलसः. अलसः इत्युक्ते लेज़ि पर्सन्. या स्त्री तत्र इतोपि किं वक्तव्यं? राजेशसिंह महोदय, भवान् वदतु, स्त्रीलिङ्गे कथं वदामः? अत्र अलसा इति पदं योजयित्वा वदतु. अलसा इति स्त्रीलिङ्गपदम्. अलसा वाक्यं रचयतु.
या कार्यं न करोति सा अलसा.
अलसा, उत्तमम्. या कार्यं न करोति सा अलसा. या गायति सा
गायिका.
या बालिका, या महिला वाहनं चालयति सा
चालिका.
चालिका, उत्तमम्. या पत्रं लिखति सा
लेखिका.
लेखिका. या संस्कृता, या बालिका संस्कृताभ्यासं कुर्वती अस्ति सा एका विद्यार्थिनी. इति वदामः. अपि च या बालिका तत्र उपविष्टा अस्ति सा एव मम पुत्री. अथवा सा एव मम माता. अथवा सा एव मम सहोदरी. एतादृशानि वाक्यानि रचयितुं शक्नुमः. अपि च अधुना यत् तत् योजयित्वा नूतनानि वाक्यानि किञ्चित् अभ्यासं कुर्मः. अहं वाक्यस्य वदतु महोदय.
क्रीडालुः स्त्रीलिङ्गपदं. या क्रीडति सा क्रीडालु.
तत्र तत् पदम् अहं न जानामि महोदय. क्रीडालुः इति पदम् आलुच् प्रत्ययः, किन्तु तत्र पुंलिङ्गरूपं क्रीडालुः अस्ति. किन्तु क्रीडाकारः, क्रीडाकारिणी, क्रीडाकारिणी इति पदं स्त्रीलिङ्गे वक्तुं शक्नुमः.
या क्रीडति सा क्रीडाकारिणी.
कारिणी, क्रीडाकारिणी. उत्तमम्. भवानेव वदतु. अहं वाक्यस्य प्रथमभागं वदामि, भवान् उत्तरभागम्. उत्तरभागमित्युक्ते द्वितीयभागं वदतु. मम पार्श्वे अधुना यत् पुस्तकमस्ति तदेव अभ्यासपुस्तकं. मम पार्श्वे यत् संस्कृतपुस्तकम् अधुना अस्ति तत् पुस्तकम् अभ्यासपुस्तकम् इति तादृशरीत्या यत् तत् योजयित्वा वाक्यानि. मम प्रकोष्ठे या बालिका अस्ति, भवान् पूरयतु.
मम प्रकोष्ठे या बालिका अस्ति सा एव
सा एव मम पुत्री अथवा सा एव मम पत्नी बालिका न किमपि या महिला अस्ति सा एव मम पत्नी किमपि वक्तुं शक्नुमः. उत्तमम्. अहं प्रथमभागं वदामि. अहं यत् वदामि तत् शृणोतु अथवा अहं यत् वदामि तत् कथं तत्र वाक्यरचनां वाक्यं पूरयामः. भवान् पूरयतु. तदेव सत्यम्. उत्तमम् उत्तमं. तथा वक्तव्यम्. अहं यत् वदामि तदेव सत्यम्. अहं यत् वदामि तत् सत्यं वा इति सर्वदा चिन्तनीयम्. अहं यत् पठामि तत् अहं सम्यक् न स्मरामि इति अपि वक्तुं शक्नुमः. अहं यत् वदामि तत् निश्चयेन करोमि तथा अपि वक्तुं शक्नुमः. अपि च अन्यानि वाक्यानि भवानेव वदतु. अधुना यत् आकाशे अस्ति तत् किम्?
आकाशे अस्ति तत् वायुः.
आकाशे किं 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 भवितुं शक्नोति? आकाशे
चन्द्र सूर्य.
उत्तमम्. अत्र किन्तु यत् इति पदं योजयित्वा वदामः अतः पदं नपुंसकलिङ्गपदं भवेत् एव. इत्युक्ते यत् यत् आकाशे अस्ति तत् किं? तत् नक्षत्रम्. अथवा यत् आकाशे अस्ति तत् विमानम्. अत्र यत् तत् योजयित्वा वाक्यरचनां कुर्वन्तः स्मः वयम्. अतः नपुंसकलिङ्गपदं स्वीकृत्य वक्तव्यं. यदाकाशे अस्ति तत् नक्षत्रम्. अपि च अत्र यत् तत् अथवा यः सः या सा योजयित्वा सप्तसु विभक्तिषु वाक्यरचनां कर्तुं शक्नुमः. कथं? यः शब्दस्य बहुवचनरूपं ये यः यौ ये तादृशरीत्या रूपाणि भवन्ति. ये जनाः अथवा ये बालकाः विद्यालये पठन्ति ते सर्वे छात्राः अथवा ते सर्वे विद्यार्थिनः. अत्र पश्यन्तु ये ते. यथा वयं पूर्वं यः सः यः विद्यालये पठति सः विद्यार्थी. किन्तु अधुना अहं बहुवचने वक्तुमिच्छामि. ये बालकाः विद्यालये पठन्ति ते सर्वे छात्राः. तथा इत्युक्ते बहुवचने अपि वक्तुं शक्नुमः. भवन्तः श्रुतवन्तः वा एतत् एतं श्लोकम्? आत्मात्वं गिरिजामतिः सहचराः प्राणाः शरीरं गृहं पूजाते विषयोपभोगरचना निद्रा समाधिस्थितिः सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वागिरो यद्यत् कर्म करोमि तत्तदखिलं शम्भो तवाराधनं. बहुप्रसिद्धः श्लोकः. इत्युक्ते अत्र श्लोकस्य अन्ते किं वदति कविः? यत् यत् करोमि तत्तदखिलं शम्भो तवाराधनं. यत् यत् इति वदामश्चेत् तत्र साधारणतया तस्मिन् वाक्ये तदपि आगच्छति. यदि योजयित्वा वदामश्चेत् यदि यत् इति पदं योजयित्वा वदामश्चेत् तत् इति अपि आगच्छति. तत्र श्लोके वाक्यं किम्? अहं यत् यत् करोमि तत् तत् सर्वं शम्भो तव आराधनम् इति कविः वदति. तथा एव अपि च बहुवचने अपि वयं वक्तुं शक्नुमः अत्र वाक्यानि. इतोपि किञ्चित् अभ्यासं कुर्मः अधुना. अत्र राजेशसिंह महोदय भवान् वदतु, अहं प्रथमभागं वदामि, भवान् द्वितीयभागं वदतु. मम गृहे यत् काव्यमस्ति तत् काव्यं
पठति.
तत् काव्यं पठतु. पठतु. मम गृहे यत् काव्यमस्ति तत् काव्यं पठतु, अथवा मम गृहे यत् काव्यमस्ति तत् काव्यम् एव रामायणं. यत् तत् अपि च अस्मिन् उद्याने यः वृक्षः अस्ति सः वृक्षः वदतु.
सः वृक्षः
पूरयतु.
आमफलम्.
आम्रवृक्षः. अस्मिन् उद्याने, इन् दिस् गार्डन्, अस्मिन् उद्याने यः वृक्षः अस्ति सः वृक्षः आम्रवृक्षः, अथवा यः वृक्षः अस्मिन् उद्याने अस्ति सः वृक्षः मम गृहे नास्ति, अथवा सः वृक्षः आम्रवृक्षः, अथवा सः वृक्षः तालवृक्षः, अथवा नारिकेलवृक्षः. यः सः इति वदामः. अपि च संस्कृतकक्ष्यायां यः पाठयति सः एव संस्कृताध्यापकः इति वदामः. अपि च द्वितीयाविभक्त्यां वक्तुमिच्छामश्चेत् वाक्यं कथं वक्तव्यम्? अहम् अधुना यं वृक्षं पश्यामि तं वृक्षं भवानपि पश्यतु. यं तम्, अहम् अधुना यं वृक्षं पश्यामि तं वृक्षं भवानपि पश्यतु इति. तत्र यं तम् इति वदामश्चेत् द्वितीयाविभक्त्यां रूपाणि सन्ति. तत्र यः शब्दस्य द्वितीयान्तं रूपं यं, सः शब्दस्य द्वितीयान्तं रूपं तम्. अपि च अस्माकं कक्षायां यः सम्यक् संस्कृतपाठं पठति सः एव उत्तमः छात्रः. कादम्बरी भगिनी भवती वदतु, अस्माकं कक्षायां या संस्कृतपाठं सम्यक् पठन्ती अस्ति सा बालिका एव कादम्बरी. अपि च या बालिका मम प्रश्नानाम् उत्तरं सम्यक् दत्तवती सा एव कादम्बरी. उत्तमं. तथा एव अन्यानि वाक्यानि अपि लेखितुं शक्नुमः. उत्तमम्. अनन्तरम् अत्र सुचित्रा भगिनी भवती वदतु, अत्र मम हस्ते यत् पुस्तकमस्ति वदतु तत्.
पुनः एकवारं वदतु भगिनि.
मम हस्ते अधुना मम हस्ते यत् पुस्तकमस्ति तत्.
तत् पुस्तकम् अन्यपि नास्ति.
तत् पुस्तकं किं वदामः?
तत् पुस्तकम् अभ्यासपुस्तकम्.
तत् पुस्तकम् अभ्यासपुस्तकम्. अथवा मम हस्ते यत् पुस्तकमस्ति तत् पुस्तकम् एव अहं पठामि. अपि च वाल्मीकि, भवन्तः सर्वे जानन्ति एव वाल्मीकिः. वाल्मीकिना यत् काव्यं लिखितं तत् एव
रामायणम्.
उत्तमम्. मम गृहे यानि काव्यानि सन्ति तानि सर्वाणि वदतु, पूरयतु. मम गृहे
इतिहासकाव्यानि
वदतु.
वेदानि
मम गृहे यानि यानि काव्यानि उत्तमानि काव्यानि सन्ति तानि सर्वाणि किं वदामः वाक्यं पूरयामः कथं पूरणीयम् अत्र मम गृहे कानिचन काव्यानि सन्ति पुस्तकानि सन्ति मम गृहे यानि यानि उत्तमानि काव्यानि सन्ति तानि सर्वाणि उत्तमानि अहं न पठितवती
भगिनि काव्यम् इस् इट् जस्ट् फिक्शनल् विल् इतिहास पुराणम् आल्सो बि पार्ट् आफ् काव्यम्
रामायणं काव्यं 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 भिन्नं ग्रन्थः भिन्नः तत्र इतिहासः भिन्नः इतिहासः महाभारतम् एकः इतिहासः तत्रापि इतिहासः इति पदं कथम् आगतं तस्य कृते एटिमालजि द्रष्टव्यं यु नीड् टु नो द एटिमालजि आफ् द वर्ड् इतिहासः इफ् यु नो द वर्ड् how that itihasa iti padam if you know it will be wonderful itihasa tadrusharitya padam agatam mahabharatam tu itihasah ramayanam kavyam iti asti ichukte mama gruhe yani yani kavyani santi tani sarvani aham na patitavati lakshmi bhagini bhavati vadetu aham yat phalam khaditum icchami तत् फलम्
आम्रफलम्
तत् फलम् आम्रफलम् अथवा अहं यत् फलं खादितुमिच्छामि तत् फलम् अधुना गृहे नास्ति यद्यपि अहं खादितुमिच्छामि तत् फलं नास्ति अथवा भवती यथा उक्तवती तदेव आम्रफलम् अपि च अहं यत् चलनचित्रं द्रष्टुमिच्छामि तत् किं वदामः चलनचित्रं वदतु महोदय
समये नास्ति
इत्युक्ते वदतु भगिनि
मम गृहे
तत् चलनचित्रम् अधुना
अधुना वदतु अहं यत् चलनचित्रं द्रष्टुमिच्छामि तत् चलनचित्रं मम गृहे नास्ति इति भगिनी उक्तवती अथवा भिन्नरीत्या वदामश्चेत् तत् चलनचित्रम् अधुना चित्रमन्दिरे नास्ति चित्रमन्दिरे न दर्शयन्ति अहं यत् देवमन्दिरं गन्तुमिच्छामि तदेव राममन्दिरम् अहं श्वः राममन्दिरं गन्तुमिच्छामि तथा वक्तव्यम् अपि च अधुना या बालिका यद्गीतं गीतवती तत् गीतं वदतु भवती एव पूरयतु वाक्यं बहु प्रसिद्धं गीतम् अधुना
मधुरं भवति
भवती एव पूरयतु वाक्यं
मधुरं गायति तत् गीतं मधुरं गायति
उत्तमम् भगिनि ध्वनिः अस्ति भवत्याः पार्श्वे अतः म्यूट् करोमि अधुना बालिका यत् गीतं गीतवती तद्गीतं मधुरमस्ति अथवा तद्गीतम् एव जातीयगीतम् अपि च एकं प्रसिद्धं वाक्यं वदामि महाभारतस्य लेखकः एव व्यासः वेदव्यासः सः स्वयं एकं वाक्यम् उक्तवान् तत् किमित्युक्ते तत्र श्लोकः अस्ति यदि हास्ति तदन्यत्र यन्ने हास्ति न तत् क्वचित् इति श्लोकस्य वाक्यमस्ति. पुनः एकवारं वदामि, यदि हास्ति तदन्यत्र यन्ने हास्ति न तत् क्वचित्. इत्युक्ते किम्? इत्युक्ते सः वेदः, वेदव्यासः स्वयं वदति. किं वदति? यत् सर्वं लोके अस्ति तत् महाभारते अस्ति, किन्तु यत् महाभारते अस्ति तत् सर्वम् अन्यत्र नास्ति. वाट् एवर् इस् देर् इन् महाभारत, इट् इस् देर् इन् द होल् वर्ल्ड्. बट् वाट् एवर् इस् रिटन् इन् महाभारत, द होल् थिङ्ग् यु काण्ट् सी इन् द वर्ल्ड्. दट् मीन्स् हि इस् चालेञ्जिङ्ग् अस् दट् देर् इस् नथिङ्ग् एल्स् इस् देर् दट् इस् नाट् रिटन् इन् महाभारत. That means everything is written in Mahabharata. Atra yat sarvam loke asti tad Mahabharate asti, kintu Mahabharate yad asti tad sarvam anyatra nasti iti Vedavyasaha swayam uktavan. Vyasoktihi etad vakyam vyasena uktamasti. Yadi hasti tad anyatra enne hasti न तत् क्वचित्. अपि च अत्र वयं सुन्दररीत्या, उत्तमरीत्या वयं वाक् अभ्यासं कृतवन्तः. अधुना एकवारम् अत्र सर्वे करपत्रं पश्यन्तु. अत्र करपत्रं दृष्ट्वा अत्र रूपाणि पठामः. अत्र अहम् एकं करपत्रं प्रेषितवती, तत् करपत्रं दृष्ट्वा एकवारं तत्र रूपाणि एकवारं पठामः. सुचित्रा भगिनी भवती पठतु अत्र सः शब्दस्य रूपाणि. भगिनि अस्ति वा करपत्रं पठतु? पठतु
करपत्रं. The one that you sent, the karanta karapatra bhagini.
Tadeva. Tadeva patatu.
The karanta pullingah tad shabdah vipaktihi ekavachanam dvivachanam bahuvachanam prathama saha tau te dvitya tam tau tan trutya tena ताभ्यां तैः चतुर्थी तस्मै ताभ्यां तेभ्यः पञ्चमी तस्मात् ताभ्यां तेभ्यः षष्ठी तस्य तयोः तेषां सप्तमी तस्मिन् तयोः तेषु.
अत्र तयोः इति वक्तव्यम्. अत्र षष्ठी द्विवचनं, सप्तमी द्विवचनं, तयोः किन्तु तृतीया विभक्ति बहुवचनं तैः इति वक्तव्यम्. अधुना यः शब्दं वदतु अत्र, यत् यत् शब्दं?
यत् प्रथम यः, तौ ते, द्वितीया यं यौ यान्, तृतीया येन याभ्यां तैः यैः, चतुर्थी यस्मै याभ्यां येभ्यः, पञ्चमी यस्मात् याभ्यां येभ्यः, षष्ठी यस्य
ययोः
ययोः येषां सप्तमी तस्मिन् ययोः येषु.
अत्र यद् शब्दः, यस्मिन् यः यौ ये यं यौ यान् येन याभ्यां यैः यस्मै याभ्यां येभ्यः यस्मात् याभ्यां येभ्यः यस्य ययोः येषां यस्मिन् ययोः येषु. अत्र एतानि पदानि सुबन्तपदानि, किन्तु सः सर्वनामपदानि, अतः अत्र सम्बोधनारूपं नास्ति. यदि पदं नामपदमस्ति चेत् सम्बोधनारूपम् अपि भवति. अधुना धन्यवादः भगिनी. अधुना कादम्बरी भगिनी भवती पठतु, दकारान्त स्त्रीलिङ्गपदं पठतु.
अस्तु भगिनि. प्रथमा, सा ते ताः. द्वितीया, तां ते ताः. तृतीया, तया ताभ्यां ताभिः. चतुर्थी, तस्यै ताभ्यां ताभ्यः. पञ्चमी, तस्याः ताभ्यां ताभ्यः. षष्ठी, तस्याः तयोः तासाम्. सप्तमी, तस्यां तयोः तासु.
उत्तमम्. इत्युक्ते अत्रापि प्रातिपदिकं तद् दकारान्तपदं प्रातिपदिकम् अस्ति, किन्तु स्त्रीलिङ्गरूपं सा इति भवति. अधुना दकारान्तस्त्रीलिङ्गपदं यत् यद् पदं पठतु, यत् शब्दं पठतु.
प्रथमा, या ये याः. द्वितीया, यां ये याः. तृतीया, यया याभ्यां याभिः. चतुर्थी, यस्यै याभ्यां याभ्यः. पञ्चमी, यस्याः याभ्यां याभ्यः. षष्ठी, यस्याः ययोः यासाम्. सप्तमी, यस्यां ययोः यासु.
अत्र एकवारं पश्यतु, अत्र कुत्र कुत्र समानरूपाणि सन्ति, रूपं समानमस्ति, कुत्र कुत्र रूपं समानमस्ति एकवारं पश्यतु.
प्रथम एकवचनं, सा या. प्रथमा, सा ते ताः. या ये याः. द्वितीया, तां ते ताः. यां ये याः.
इत्युक्ते अत्र पश्यतु, अत्र किञ्चिदपि कष्टं नास्ति. पश्यतु, केवलं सा ते ताः इति वयं जानीमः चेत् या ये याः वयं सुलभतया वक्तुं शक्नुमः. इत्युक्ते अत्र केवलं सा ते ताः, या ये याः, तादृशरीत्या किञ्चित् भिन्नमेव. अपि च अत्र पश्यतु, यत् शब्दं पश्यामश्चेत् प्रथमाविभक्ति बहुवचनं, द्वितीया बहुवचनं समानं, याः याः. तथा एव तृतीया विभक्ति द्विवचनं, चतुर्थी द्विवचनं, पञ्चमी द्विवचनं समानं. कथं, याभ्यां याभ्यां याभ्यां. तथा एव अत्र ताभ्यां ताभ्यां ताभ्यां, द्विवचनरूपं. तथा एव अत्र चतुर्थी बहुवचनं, पञ्चमी बहुवचनं समानं, याभ्यः याभ्यः. तथा एव ताभ्यः ताभ्यः. अपि च अत्र षष्टिद्विवचनं, सप्तमी द्विवचनं समानं, तयोः तयोः, ययोः ययोः. इत्युक्ते अत्र कानिचन रूपाणि समानानि सन्ति. यदि वयं किञ्चित् कण्ठस्थं कुर्मः चेत् सम्यक् रूपाणि समीचीनतया वक्तुं शक्नुमः. उत्तमम्. अनन्तरम् अत्र राजीवसिंह महोदय, भवान् पठतु अग्रिमं पदं, तत् शब्दं नपुंसकलिङ्गे.
प्रथमा, तत् ते तानि. द्वितीया, तत् ते तानि. तृतीया, तेन ताभ्यां तैः. चतुर्थी, तस्मै ताभ्यां तेभ्यः. पञ्चमी, तस्मात् ताभ्यां तेभ्यः. षष्ठी, तस्य तयोः तेषां. सप्तमी, तस्मिन् तयोः तेषु.
अत्र यद् शब्दमपि पठतु.
प्रथमा, यत् ये यानि. यत् ये यानि येन याभ्यां यहि यस्मै याभ्यां येभ्यः यस्मात् याभ्यां येभ्यः यस्य ययोः येषां यस्मिन् ययोः येषु.
उत्तमं. यद्यपि अस्माकं पुस्तके अभ्यासपुस्तके सः यः सा या त अथवा तत् यत् एतादृशानि प्रथमाविभक्त्यन्तरूपाणि एकवचनरूपाणि एव योजयित्वा वाक्यानि दत्तवन्तः अभ्यासपुस्तके. किन्तु अस्माकं कार्यं किं, सप्तसु विभक्तिषु त्रिषु वचनेषु वाक्यरचनां कर्तुं शक्नुमः. अत्र यः बालकः अस्ति सः मम पुत्रः. अहं यं बालकं पश्यामि सः सः मम सः एव मम पुत्रः. तादृशरीत्या अत्र सप्तसु विभक्तिषु अपि च त्रिषु वचनेषु वाक्यानि लेखितुं शक्नुमः. अत्र यानि वाहनानि चलन्ति तानि किं वदामः, मार्गे यानि वाहनानि चलन्ति तानि सर्वाणि वाहनानि नूतनानि. तथा इत्युक्ते बहुवचने अपि वाक्यं लेखितुं शक्नुमः, सप्तषु विभक्तिषु वाक्यरचनां कर्तुं शक्नुमः. अतः भवन्तः सर्वे गृहपाठरूपेण एतत् करपत्रं पठन्तु, पठित्वा रूपाणि सम्यक् जानन्तु, एतत् करपत्रम् अस्य कण्ठस्थं कुर्वन्तु. अपि च यः सः या सा यत् तत् योजयित्वा स्वीयवाक्यानि लिखन्तु. उत्तमम्. अधुना अत्र स्थगयाम. अग्रिमे सप्ताहे पुनः मिलित्वा अन्यान् नूतनान् विषयान् ज्ञास्यामः. सर्वेषां धन्यवादः. नमस्कारः.
धन्यवादः.
धन्यवादः.